इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मू सबलं प्रत्यपादयत् यत् बाला देशस्य भविष्यं सन्ति। तावत् शिक्षकाणां कर्तव्यमिदं भवेत् यत् ते बालेषु नैतिक मूल्यस्य आलोचनात्मक विचारगत कौशलस्य समाजं प्रति कर्तव्यस्य च भावनायाः सर्जनं कुर्वन्तु इति। अवधेयास्पदं वर्तते यत् राष्ट्रपतिः मुर्मू ह्यः नवदिल्ल्यां द्वयशीतिः शिक्षकेभ्यः राष्ट्रिय शिक्षक पुरस्कारं प्रदत्तवती। अत्रावसरे अनया भणितं यत् महिलाः प्रति सम्मानं वाचिकरूपेण मा भवेत्, अपि तु व्यवहारे तस्य प्रदर्शनं करणीयम्। राष्ट्रपतिः अग्रे अब्रवीत् यत् कस्यापि समाजे महिलास्थितिः तस्य विकासाय महत्वपूर्णं मानदण्डं भवतीति। राष्ट्रपतिः शिक्षकान् सम्बोधयन्ती प्रोक्तवती यत् तेषां विद्यार्थिभ्यः समागताः वंशाः विकसित भारतस्य निर्माणे महत्वपूर्ण भूमिकां निभालयिष्यन्ति। एकः महान् शिक्षकः राष्ट्रं विनिर्माति, अपि च शिक्षकाः एव छात्रान् प्रेरयन्तः भारतं ज्ञानकेन्द्रं निर्मास्यन्ति। भारत सिंगापुर देशयोर्मध्ये स्वास्थ्य चिकित्सा शिक्षा कौशल विकास प्राविधिक प्रौद्योगिकी भारत सिंगापुर अर्धचालक प्रणालीनां क्षेत्रेषु सहकारार्थं मन्त्रिस्तरीयाणां चतुर्णां सहमति पत्राणां आदान प्रदानं हस्ताक्षरं च जातम्। उभौ अपि देशौ स्वसम्बन्धान् समग्र सामरिक सहभागित्वं वर्धयितुं सहमतौ अभवताम्, येन हि भारतस्य एक्ट ईस्ट इति नीतिः प्रमुखतया प्रवर्धिता भविष्यति। ह्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः सिंगापुरदेशस्य प्रधानमन्त्रिणा लॉरेंस वोंग इत्यनेन सह प्रतिनिधिस्तरीयाः वार्तायाः अनन्तरम् अयं निर्णयः कृतः। सिंगापुरदेशे वार्तालापकाले उभौ नेतारौ द्विपक्षीय सम्बन्धानां प्रगतिं समीक्षितवन्तौ। आर्थिक सम्बन्धेषु प्रबलां प्रगतिम् अवलोक्य उभौ पक्षौ देशयोर्मध्ये व्यापारस्य निवेशस्य च प्रवाहस्य विस्ताराय आह्वानम् अकुरुताम्। अत्रावसरे प्रधानमन्त्री मोदी सिंगापुरदेशस्य राष्ट्रपतिना थर्मन षण्मुगरत्नम् इत्यनेन सह अपि मिलितवान्। रक्षामन्त्री राजनाथ सिंहः ह्यः सशस्त्र बलानां शीर्षाधिकारिभिः आग्रहं कृतवान् यत् ते रूस युक्रेन युद्धं इज़राइल हमास संघर्षं बांग्लादेशस्य च वर्तमानां स्थितिं चावलम्ब्य सञ्चेतिताः भवेयुः। रक्षामन्त्री उत्तरप्रदेशस्य लखनऊ नगरे संयुक्त सेनाध्यक्षाणां सम्मेलनस्य उपवेशनस्य द्वितीयस्य अन्तिमस्य च दिवसस्य अध्यक्षतां कृतवान्। असौ उत्तरीय सीम्ने क्षेत्रीय शान्तये स्थिरतायै च संकटोत्पन्नानां प्रतिवेशी देशानां घटनाक्रमान् अवलोक्य वरिष्ठ सैन्याधिकारिभिः व्यापक विश्लेषणस्य महत्वं प्रख्यापितवान्। अस्य सम्मेलनस्य विषयो विद्यते सशक्तं सुरक्षितं च भारतं सशस्त्रं बलेषु संशोधनमिति। संयुक्त अरब अमीराते भारतीय शिक्षां सुदृढीकर्तुम् एकस्मिन् इति वृत्ते पदक्षेपे केन्द्रीय माध्यमिक शिक्षामण्डलेन सीबीएसई इत्यनेन भारतात् बहिः दुबय्यां स्वस्य प्रथमस्य क्षेत्रीय कार्यालयस्य उत्कृष्टता केन्द्रस्य च उद्घाटनं कृतम्। दुबय्यां नवोद्घाटितः अयं क्षेत्रीय कार्यालयः तत्र परीक्षाणां व्यवस्थायां महत्वपूर्ण भूमिकां निर्वक्ष्यति। पेरिस पैरालम्पिक क्रीडासु भारतस्य जूडो क्रीडकः कपिल परमारः पुरूषाणां षष्टि किलोग्राममितस्य पैरा जूडो द्वन्द्वस्य प्रतियोगितायां ब्राजील देशस्य एलिल्टन डी ओलिवेरां पराजित्य अस्याः स्पर्धायाः ऐतिह्यं प्रथमं भारताय कांस्य पदकं समर्जितवान्। सम्प्रति प्रतिस्पर्धासु अष्टमे दिने भारतस्य सुस्यूते पञ्च सुवर्ण पदकानि सन्ति इति वार्ताः।